एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई ह्य आराष्ट्रम् कोरोना विषाणुना नवसहस्राणि शतद्वयम् सप्तचत्वारिंशत् जना संक्रान्ताः सन्ति एकविंशति सहस्राणाम् त्रिपञ्चाशदधिक षट्शतस्य च निदर्शनानाम् पीसीआर विधिना विहितेन परीक्षणेन नवसहस्राणि अष्टनवत्यधिक शतम् च चतुस्त्रिंशदुत्तर चतुश्शतस्य निदर्शनानाम् एन्टिजेन विधिना विहितेन परीक्षणेन ऊनपञ्चाश चेतीकृत्वा समग्रतः नवसहस्रेषु सप्तचत्वारिंशदधिक शतद्वयच जनेषु संक्रमणम् पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्यः चतुर्विंशति घण्टानाम् अवधौ आराष्ट्रम् पञ्चसहस्राणि षष्ट्यधिक सप्तशतम् च जना कोरोना संक्रमणात् मुक्ता सन्तु गृहम् प्रत्यावृताः सन्ति। यस्तनावधि प्राप्तानाम् तथ्याङ्कानाम् अनुसारेण नेपाली कोरोना विषाणु प्राप्त स्वास्थ्य लाभानाम् जनानाम् अंकमान प्रतिशतम् 0.4% अस्तीति मन्त्रालयो ज्ञापयति। आराष्ट्रम् गतदिने कोरोना संक्रमण चतुर्दशाधिक 200 जना मृता अनेन सह कोरोना संक्रमणेन नेपाली मृतानाम् जनानाम् संख्या 5.5% च प्राप्त वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण सम्प्रति नेपाले लक्ष्यम् 3.8% च सक्रिय संक्रान्त जना एकान्तवासे उचित उपचार्यमाणः सन्ति। अत्रान्तरे स्वास्थ्य जनसंख्या मन्त्रालयेन भाविन कचित सप्ताह इतोऽपि समाहय पूर्ण भविष्यन्तीति हेतु संयमेन सहयोगेन च एकीभूय कार्यम् कर्तव्यम् भवतीति ज्ञापितम् वर्तते। यः सूचनाम् प्रकाश्य मन्त्रालयेन निषेधाज्ञा समये जनस्वास्थ्यस्य मापदण्डा न पालितः एवं जनानाम् गमनागमनम् 69% एव न्यूनीभूतम् इति ज्ञापितमस्ति। संक्रमणस्य संकट वर्धनस्य अवस्थायाम् एतस्य नियन्त्रण निरोधनयो कृते प्रभावकारिणी भूमिकाम् वर्धयितुम् मन्त्रालयेन सर्वे अनुरुद्धा सन्ति। कचित चिकित्सालये रुग्णा प्राणवायु आनीय आगता सन्तैव उपचारो विधीयते इति उक्ता निवेदन प्राप्तै कारणात् तत्र गभीरम् ध्यानम् आकृष्टम् इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयेन सार्वजनिक सूचनाम् प्रकाश्य रुग्णेषु तदीय सम्बन्धी जनेषु वा प्राणवायु आनीय आगमनीयम् इति उक्तेषु सस्यु नियमानुसारेण दण्डनम् भविष्यतीति ज्ञापितम् वर्तते। सर्वोच्च न्यायालयेन कोरोना विषाणुना संक्रान्तानाम् जनानाम् कृते आवश्यकानाम् कृत्रिम श्वास प्रश्वासकोपकरणानाम् प्राणवायु औषधानाम् च व्यवस्थाम् कर्तुम् अन्तरिमादेश प्रदत्तो वर्तते। न्यायाधीशस्य नहकुल सुवेदिन एकल न्यायपीठेन ह्य एवम् आदिश्य कोरोना विषाणुना संक्रान्तानाम् व्यक्तिनाम् उपचारस्य अभावात् मरणस्य अवस्थाया निवारणार्थम् कोविड विषाणु उपचारा निर्धारिते कस्मिन्नपि चिकित्सालय सघन उपचार कक्षस्य कृत्रिम श्वास प्रश्वासकोपकरणानाम् च व्यवस्थां कर्तुम् उक्तमस्ति। प्रत्येकं नागरिकं राज्यात् आधारभूत स्वास्थ्य सेवा निःशुल्कं प्राप्तेः कमपि आकस्मिक स्वास्थ्य सेवाश्च न वञ्चयितुं न्यायालयेन आदिष्टम् वर्तते। प्रधानमन्त्री मन्त्री परिषद कार्यालयम् गृह स्वास्थ्य जनसंख्या विधि न्याय संसदीय विषयार्थ मन्त्रालयञ्च विपक्षीकृत्य अधिवक्त्रा मनीष कुमार श्रेष्ठेन रविवासरे पञ्जीकारिते निवेदने प्रारम्भिकं श्रवणं विधाय न्यायालयेन एवम् आदिष्टमस्ति। अर्थमन्त्रिणा विष्णु प्रसाद पौडेलेन कोविड 19 निरोधन नियन्त्रणोपचारै सह सम्बद्धानाम् स्वास्थ्य सामग्रीणाम् उपकरणानाम् औषधानाम् च प्रवेश शुल्क परीक्षणानुमत्यै प्राथमिकताम् प्रदाय अनुमति प्रदानम् शीघ्रम् सरलम् च विधातुम् निर्दिष्टम् वर्तते। अर्थमन्त्री पौडेल ह्य श्रव्यदृश्य प्रविधि माध्यमेन सम्बोधयन् प्रवेश शुल्क विभागस्य विभिन्न प्रवेश शुल्क कार्यालयानाम् च प्रमुखान् तरलीकृत प्राणवायु प्राणवायु वायुगोला प्राणवायु उद्योगानां वस्तूनि चेत्यादीनां स्वास्थ्य सामग्रीणां आयतं सहजं विधातुं निरदिशत। अर्थमन्त्री पौडेलः कोविड 19 उपचाराय आयातानां वस्तूनां परिणामं मूल्यं च प्रतिदिनं ज्ञापयितुं च निरदिशत। काष्ठमण्डपस्य चन्द्रागिरी नगरपालिकायां षष्ठे शयानम् प्राणवायु व्यवस्था युतम् एकान्तवास केन्द्रम् सञ्चालितम् वर्तते। काष्ठमण्डपोपत्यकाया मुख्य प्रवेशद्वार वर्तिन्याम् चन्द्रागिरी नगरपालिकायां कोरोना संक्रमणस्य द्वितीय लहर्या प्रसरणम् अनु षष्ठे शयानम् प्राणवायु व्यवस्था सहितम् एकान्तवास केन्द्रम् सञ्चालितम् अस्ति इति नगर प्रमुख घनश्याम गिरी अज्ञापयत्। कोविड 19 द्वितीय लहरिया महामारी भक्तपुरी संक्रान्तनाम जनानाम उपचारकाय चिकित्सालय द्वाय निर्मीयमाणाय नूतन चिकित्सालय च सर्वकारण अष्टकोट लक्ष्यम सप्तति सहस्राणि च रूप्यकाणि विनियोजितानि सन्ति। अर्थ मन्त्रालयले स्वास्थ्य मन्त्रालयस्य माध्यमेन स्वास्थ्य क्षेत्र द्रुत कार्य योजना अन्तर्गत चिकित्सालयेषु आवश्यकानि कृत्रिम श्वास प्रश्वासको उपकरणानि प्राणवायु उद्योगान प्राणवायु भण्डारणम् च निर्मातुम् रूप्यकाणि एतानि प्रदीयमानानि सन्ति। कञ्चनपुरस्य महाकाली चिकित्सालय कोरोना संक्रान्तनाम जनानाम उपचारे काठिन्यम सर्जनम अनु जनपदे कोविड चिकित्सालय वर्धाप्यमान अवस्थः। दोधारा चाँदिनी नगरपालिकाया दोधारा प्राथमिक स्वास्थ्य केन्द्रम भीमदत्त नगरपालिकाया महेन्द्रनगर वर्तिनम सेफर चिकित्सालय च कोविड चिकित्सालय निर्मातुम निर्णीतम वर्तते। सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्री त्रिलोचन भट्ट कोरोना विषाणुना संक्रान्तो वर्तते। सेती प्रादेशिक चिकित्सालय विहितेन परीक्षणेन मुख्यमन्त्री भट्ट संक्रान्त इति पुष्टिभूतमिति मुख्यमन्त्रिणा नैज सचिवालयेन ज्ञापितं वर्तते। मुख्यमन्त्री भट्ट चिकित्सकानां निरीक्षणे गृहकान्तवासे स्थितोऽस्ति। प्रधानमन्त्रिणा केपी शर्मा ओलीन गृहीतस्य पद गोपनीयतयो शपथस्य निरसनम् अभियाच्य सर्वोच्च न्यायालये चत्वारि आदेशाभियाचन निवेदनानि पञ्जीकारितानि सन्ति। आदेशाभियाचन निवेदनानां श्रवणम् अद्य निर्धारितमस्ति। निवेदने प्रधानमन्त्रिणा गृहीते शपथे कतिपय शब्दानोच्चारितः स्वानुकूलान् शब्दान् प्रयुज्य शपथ ग्रहीतुं न शक्यते इति च उल्लिखितमस्ति।